भगवद गीता चैप्टर 15 पुरुषोत्तम योग।
पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखम् अश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः गुणप्रवृद्धा विषय प्रवालाः अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ततः पदं तत्परिमार्गितव्यं यस्मिन् गतान् निवर्तन्ति भूयः तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी निर्मानमोहाजितसङ्गदोषाः अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः गच्छन्त्यमूढा पदमव्ययं तत् न तद्भासयते सूर्यः न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ममैवांशो जीवलोके जीवभूत सनातनः मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानि वाशयात् श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् Pashyanti Pashyanti Jnana Chakshushah Yatanto Yoginaschainam Pashyantyatman Yavasthitam Yatanto Pyakritatmanah Nainam Pashyantya Chetasah Yadaditya Gatam Tejah Jagat Bhasayate Khilam Yachandramasi Yachagnau Tat Tejo Vidhi Mamakam Gama Vishyacha Bhutani Dharayam Yah Mojasa Pushnami Chaushadhi Sarvaha Somo Bhutvara Satmakah Aham Vaishvanaro Bhutva Praninam Deham Ashritah Pranapana Samayuktah Pacham Yannam Chaturvidham Sarvasya chaham hridi sannivishtah Matta smrutir jnanam apohanam cha Vedaischa sarvairahameva vedyah Vedantakrit vedavideva chaham Dvavimau purushau loke Ksharaschakshara eva cha Kshara-sarvani bhutani Kutasthokshara uchyate Uttamah purushastvanyah Paramātmetyudāhṛtah Yo lokatraya māvishya Bibhartyavyaya īśvarah Yasmāt kṣaramatītoham Aksharādapi chottamah Atosmi loke vedecha Prathitah purushottamah Yo mām evam sammūḍah Jānāti purushottamam Sasarvavit bhajati mām Sarva bhavena bharata Iti guhyatamam shastram Idamuktam mayanagh Etat buddhva buddhiman syat Krita krityascha bharata Om Tat Sat Iti Shrimat Bhagavat Gita Su Upanishad Su Brahma Vidyayam Yoga Shastre Shri Krishna Arjuna Samvade Purushottama Yogo Nama Panchadashodhyayah